अथ नानार्थवर्गः नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः भूरि प्रयोगा येषु पर्यायेष्वपि तेषु ते आकाशे त्रिदिवे नाकः लोकस्तु भुवने जने पद्ये यशसि च श्लोकः शरे खड्गे च सायकः जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ आलोकौ दर्शनद्योतौ भेरीपटहमानकौ उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः तक्षको नागवर्धक्यः अर्कस्फटिकसूर्ययोः मारुते वेधसि बृध्ने पुंसि कः कंशिरोऽम्बुनोः स्यात्तुलाकस्तुच्छधान्ये सङ्क्षेपे भक्तसिक्थिके उलूके करिणः पुच्छ मूलोपान्ते च पेचकः कमण्डलौ च करकः सुगते च विनायकः किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः प्रतिकूले प्रतीकस्त्रिषु एकदेशे तु पुंस्ययम् स्याद्भूतिकम् तु भूनिम्बे कत्रिणे भूस्त्रिणेऽपि च ज्योत्स्निकायाम् च घोषे च कोशातक्यथ कट्फले सिते च खदिरे सोमवल्कः स्यादथ सिह्लके तिलकल्के च पिण्याकः बाह्लीकम् रामठेऽपि च महेन्द्रगुग्गुलूलूक व्यालग्राहिषु कौशिकः रुक्तापशङ्का स्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः व्याघ्रेऽपि पुण्डरीको न यवान्यामपि दीपकः शालावृकाः कपि क्रोष्टुश्वानस्वर्णेऽपि गैरिकम् पीडार्थेऽपि व्यलीकम् स्यात् अलीकम् त्वप्रिये नृते शीलान्वयावनूके द्वे शल्के शकलवल्कले साष्टे शते सुवर्णानाम् हेम्युरोभूषणे पले दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्रीशमलैनसोः दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः धेनुका तु करेण्वाम् च मेघजाले च कालिका कारिकायातनावृत्योः कर्णिकाकर्णभूषणे करिहस्तेऽङ्गुलौ पद्मबीजकोश्याम् त्रिषूत्तरे वृन्दारकौ रूपि मुख्यावेके मुख्यान्यकेवलाः स्याद्दाम्भिकः कौकुटिकः यश्चादूरेरिते क्षणः लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः भूभृन्नितम्ब वलयचक्रेषु कटको स्त्रियाम् सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः पाकौ पक्तिशिशु मध्य रत्नेनेतरिनायकः पर्यङ्कस्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः खेटकौ ग्रामफलकौ धीवरेऽपि च जालिकः पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च स्यात्कल्लोलेऽप्युत्कलिका वार्धकम् भाववृन्दयोः करिण्याम् चापि गणिका दारकौ बालभेदकौ अन्धेऽप्यनेडमूकः स्यात् टङ्कौ दर्पाश्मदारणौ मयूखस्त्वित्करज्वालास्वलिबाणौ शिलीमुखौ शङ्खो निधौ ललाटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् घृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ आशुगौ वायुविशिखौ शरार्कविहगाः खगाः पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः पशवोऽपि मृगावेगः प्रवाहजवयोरपि परागः कौसुमेरेणौ स्नानीयादौ रजस्यपि गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च सर्गस्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु योगः संहननोपाय ध्यानसङ्गतियुक्तिषु भोगः सुखे स्त्रियादिभृतावहेश्च फणकाययोः चातके हरिणे पुंसि सारङ्गः शबले त्रिषु कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे यानाद्यङ्गे युगः पुंसि युगम् युग्मे कृतादिषु स्वर्गेषु पशुवाग्वज्र दिङ्नेत्र घृणिभूजले लक्ष्यदृष्ट्या स्त्रियाम् पुंसि गौर्लिङ्गम् चिह्नशेफसोः शृङ्गम् प्राधान्यसान्वोश्च वराङ्गम् मूर्धगुह्ययोः भगम् श्रीकाममाहात्म्य वीर्ययत्नार्ककीर्तिषु परिघः परिघातेऽस्त्रे अप्योघो वृन्देऽम्भसाम् रये मूल्ये पूजाविधावर्घः अम्हो दुःखव्यसनेष्वघम् त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः मास्यमात्ये चाप्युपधे पुंसि मेऽध्येऽसि ते त्रिषु अभिष्वङ्गे स्पृहायाम् च गभस्तौ च रुचिस्त्रियाम् प्रसन्ने भल्लुकेऽप्यच्छो गुच्छस्तबकहारयोः परिधानाञ्जले कच्छः जलप्रान्ते त्रिलिङ्गकः केकितार्क्ष्या बहिभुजौ दन्तविप्राण्डजाद्विजाः अजाविष्णुहरच्छागाः गोष्ठाध्वनिवहाव्रजाः धर्मराजौ जिनयमौ पुञ्जोदन्तेऽपि न स्त्रियाम् बलजे क्षेत्रपूर्द्वारे वलजावल्गुदर्शना समेक्ष्मांशे रणे प्याजिः प्रजा स्यात् सन्ततौ जने अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजम् त्रिषु पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना काके भगण्डौ करटौ गजगण्टकटीकटौ शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे देवशिल्पिन्यपि त्वष्टा दिष्टम् दैवेऽपि न द्वयोः रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः रिष्टम् क्षेमाशुभाभावेश्वरिष्टे तु शुभाशुभे माया निश्चलयन्त्रेषु कैतवानृतराशिषु अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् सूक्ष्मैलायाम् त्रुटिस्त्री स्यात् कालेऽल्पे संशयेऽपि सा आर्त्युत्कर्षाश्रयः कोट्यः मूले लग्नकचे जटा व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेक्ष्णिदर्शने इष्टिर्यागेच्छयो सृष्टम् निश्चिते बहुनि त्रिषु कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु च पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च पुंसि कोष्ठोऽन्तर्जठरम् कुसूलोऽन्तर्गृहम् तथा निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽति युवाल्पयोः दण्डोऽस्त्रीलगुडेऽपि स्यात्। गुडो गोले क्षुपाकयोः सर्पमांसात् पशुव्याडौ गोभूवाचस्त्विडा इलाः क्ष्वेडावंशशलाकापि नाडीनालेऽपि षट्क्षणे काण्डोऽस्त्रीदण्डबाणार्व वर्गावसरवारिषु स्याद्भाण्डमश्वाभरणे अमत्रे मूलवणिग्धने भृशप्रतिज्ञयोर्बाढम् प्रगाढम् भृशकृच्छ्रयोः शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ भ्रूणोर्भकेऽस्त्रैणगर्भे बाणो बलिसुते शरे कणोति सूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः पणोद्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च मौर्व्याम् द्रव्याश्रिते सत्त्व शौर्यसन्ध्यादिके गुणः निर्व्यापारस्थितौ काल विशेषोत्सवयोः क्षणः वर्णोद्विजादौ शुक्लादौ स्तुतौ वर्णम् तु वाक्षरे अरुणो भास्करेऽपि स्यात् वर्णभेदेऽपि च त्रिषु स्थाणुः सर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः ग्रामणीर्नापि ते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ऊर्णामेषादिलोम्नि स्यात् आवर्ते चान्तरा भ्रुवोः हरिणी स्यान्मृगी हेम प्रतिमा हरिता च या त्रिषु पाण्डौ च हरिणः स्थूणास्तम्भे पिवेश्मनः तृष्णे स्पृहा पिपासे द्वे जुगुप्सा करुणे घृणे वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी करेणुरिभ्याम् स्त्रीनेभे द्रविणम् तु बलम् धनम् शरणम् गृहरक्षित्रोः श्रीपर्णम् कमलेऽपि च विषाभिमरलोहेषु तीक्ष्णम् क्लीबे खरे त्रिषु प्रमाणम् हेतुमर्यादा शास्त्रेयत्ता प्रमातृषु करणम् साधकतमम् क्षेत्रगात्रेन्द्रियेष्वपि प्राण्युत्पादे संसरणम् असंबाध चमूगतौ घण्टापथेथ वान्तान्ने समुत्किरणमुन्नये अतस्त्रिषु विषाणम् स्यात् पशुशृङ्गे भदन्तयोः प्रवणम् क्रमनिम्नोर्व्याम् प्रह्वेनातु चतुष्पथे सङ्कीर्णौ निचिता शुद्धा विरिणम् शून्यमूषरम् सेतौ च वर्णो वेणी नदीभेदे कचोच्चये देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ अग्न्युत्पातौ धूमकेतु जीमूतौ मेघपर्वतौ हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ यन्ता हस्तिपके सूते भर्ता धातरिपोष्टरि यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे मूर्धाभिषिक्तो भूपेऽपि ऋतुस्त्रीकुसुमेऽपि च विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरिसारथौ व्यक्तः प्राज्ञेऽपि दृष्टान्तौ उभौ शास्त्रनिदर्शने क्षत्ता स्यात्सारथौ द्वास्थे क्षत्रियायाञ्च शूद्रजे वृत्तान्तस्यात्प्रकरणे प्रकारे कात्स्न्यवार्तयोः आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः कृतान्तोऽयमसिद्धान्तदैवाकुशलकर्मसु श्लेष्मादिरसरक्तादि महाभूतानि तद्गुणाः इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः कक्षान्तरेऽपि शुद्धान्तः नृपस्या सर्वगोचरे कासु सामर्थ्ययोः शक्तिः मूर्तिः काठिन्यकाययोः विस्तारवल्योर्व्रततिः वसती रात्रिवेश्मनोः क्षयार्चयोरपचितिः सातिर्दानावसानयोः अर्तिः पीडाधनुष्कोट्योः जातिः सामान्यजन्मनोः प्रचारस्यन्दयोरीतिः कीर्तिर्डिम्बप्रवासयोः उदयेऽधिगमे प्राप्तिः त्रेतात्वग्नित्रये युगे वीणाभेदेऽपि महति भूतिर्भस्मनि सम्पदि नदीनगर्योर्नागानाम् भोगवत्यथ सङ्गरे सङ्गे सभायाम् समितिः क्षयवासावपिक्षिति रवेरर्चिश्च शस्त्रम् च वह्निज्वाला च हेतयः जगती जगति छन्दः विशेषेऽपि क्षितावपि पङ्क्तिश्छन्दोऽपि दशमम् स्यात्प्रभावेऽपि चायतिः पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः सिकतास्युर्वालुकापि वेदे श्रवसि च श्रुतिः वनिता जनितात्यर्थानुरागायाञ्च योषिति गुप्तिः क्षितिर्युदासेऽपि धृतिर्धारणधैर्ययोः बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि वासिता स्त्रीकरिण्योश्च वार्तावृत्तौ जनश्रुतौ वार्तम् फल्गुण्यरोगे च तृष्वप्सु च घृतामृते कलधौतम् रूप्यहेम्नोः निमित्तम् हेतुलक्ष्मणोः श्रुतम् शास्त्रावधृतयोः युगपर्याप्तयोः कृतम् अत्याहितम् महाभीतिः कर्मजीवानपेक्षि च युक्तेक्ष्मादावृते भूतम् प्राण्यतीते समेत्रिषु वृत्तम् पद्ये चरित्रेत्रिषु अतीते दृढनिस्थले महद्राज्यम् चावगीतम् जन्ये स्याद्गर्हितेत्रिषु श्वेतम् रूप्येऽपि रजतम् हेम्निरूप्येऽसितेत्रिषु त्रिष्वतो जागदिङ्गेऽपि रक्तम् नील्यादिरागि च अवदातस्सिते पीते शुद्धे बद्धार्जुनौ सितौ युक्तेति संस्कृते मर्षिणि अभिनीतोऽथ संस्कृतम् कृत्रिमे लक्षणोपेते अप्यनन्तोऽनवधावपि ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे विविक्तौ पूतविजनौ मूर्च्छितौ मूढसोच्छ्रयौ द्वौ चाम्लपरुषौ सुप्तौ शितीधवलमेचकौ सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् पुरस्कृतः पूजितेरात्यभियुक्ते ग्रतः कृते निवातावाश्रयावातौ शस्त्राभेद्यम् च वर्मयत् जातोन्नद्धप्रवृद्धा स्युः उच्छ्रिता उत्थितास्त्वमी वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ अर्थो विधेयरैवस्तु प्रयोजननिवृत्तिषु निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च दशमीस्थौ क्षीणरागवृद्धौ वीथीपदव्यपि आस्थानीयत्नयोरास्था प्रस्थोस्त्री सानुमानयोः शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ पादारश्म्यङ्घ्रितुर्यांशाः चन्द्राज्ञर्कास्तमोऽनुदः निर्वादो जनवादेऽपि शादोऽजम्बालशष्पयोः आरावेरुदिते त्रातरि आक्रन्दो दारुणे रणे स्यात्प्रसादोऽनुरागेऽपि स्यूदस्याद्व्यञ्जनेऽपि च गोष्ठाद्यक्षेऽपि गोविन्दः हर्षेऽप्यामोदवन्मदः प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुतो स्त्रियाम् स्त्रीसंविज्ञानसम्भाषाक्रियाकाराजिनामसु धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् पदम् व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु गोष्पदम् सेविते माने प्रतिष्ठाकृत्यमास्पदम् त्रिष्विष्टमधुरौ स्वादु मृदू चातीक्ष्णकोमलौ मूढाल्पापटु निर्भाग्या मन्दास्युर्द्वौ तु शारदौ प्रत्यग्राप्रतिभौ विद्वत् सुप्रगल्भौ विशारदौ व्यामो वटश्चन्यग्रोधौ उत्सेधः काय उन्नतिः पर्याहारश्च मार्गश्च विवधौ विवधौ च तौ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके बन्धकम् व्यसनम् चेतः पीडाधिष्ठानमाधयः स्युस्समर्थननीवाकनियमाश्च समाधयः दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादिविनश्वरे मुख्यानुयायिनिशिशौ प्रकृतस्यानुवर्तने विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेवधिः विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च देशे नदविशेषेऽब्धौ सिन्धुर्नासरिति स्त्रियाम् विधाविधौ प्रकारे च साधूरम्येऽपि च त्रिषु वधूर्जाया स्नुषा स्त्री च सुधालेपोऽमृतम् स्नुहि सन्धाप्रतिज्ञामर्यादा श्रद्धासम्प्रत्ययस्पृहा मधुमद्ये पुष्परसे क्षौद्रेऽप्यन्धन्तमस्यपि अतस्त्रिषु समुन्नद्धौ पण्डितम् मन्यगर्वितौ ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ सूर्यवह्नी चित्रभानु भानुरश्मिदिवाकरौ भूतात्मानौ धातृदेहौ मूर्खनी चौ पृथग्जनौ ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ प्रतियत्नावुभौ लिप्सा उपग्रहावथसादिनौ द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः कुलेऽप्यभिजनो जन्मभूम्यामप्यथहायनाः वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्काविरोचनाः क्लेशेऽपि विर्जिनो विश्वकर्मार्कसुरशिल्पिनोः आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवर्ष्म च शक्रो घातुकमत्तेभः वर्षुकाब्दो घनाघनः घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी ह्रादिन्यौ वज्रतडितौ वन्दायामपि कामिनी त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च क्रतुविस्तारयोरस्त्री वितानम् त्रिषु तुच्छके मन्देथकेतनम् कृत्ये केतावुपनिमन्त्रणे वेदस्तत्त्वम् तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः उत्साहने च हिंसायाम् सूचने चापि गन्धनम् आतञ्चनम् प्रतीवापजवनाप्यायनार्थकम् व्यञ्जनम् लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि स्यात्कौलीनम् लोकवादे युद्धे पश्वहि पक्षिणाम् स्यादुद्यानम् निःसरणे वनभेदे प्रयोजने अवकाशे स्थितौ स्थानम् क्रीडादावपि देवनम् उत्थानम् पौरुषे तन्त्रे सन्निविष्टोद्यमेऽपि च व्युत्थानम् प्रतिरोधे च विरोधाचरणेऽपि च मारणे मृतसंस्कारे गतौ द्रव्ये अर्थदापने निर्वर्तनोपकरणानुव्रज्यासु च साधनम् निर्यातनम् वैरशुद्धौ दानेऽन्यासार्पणेऽपि च व्यसनम् विपदि भ्रंशे दोषे कामजकोपजे पक्ष्माक्षिलोम् निकिञ्जल्के तन्त्वाद्यंशे प्यणीयसि तिथिभेदे क्षणे पर्व वर्त्मनेऽत्र छदे ध्वनि अकार्यगुह्ये कौपीनम् मैथुनम् सङ्गतौ रते प्रधानम् परमात्माधीः प्रज्ञानम् बुद्धिचिह्नयोः प्रसूनम् पुष्पफलयोः निधनम् कुलनाशयोः क्रन्दने रोदनाह्वाने वर्ष्मदेहप्रमाणयोः गृहदेहत्विप्रभावा धामान्यथ चतुष्पथे सन्निवेशे च संस्थानम् लक्ष्मचिह्नप्रधानयोः आच्छादने सम्पिधानमपवारणमित्युभे आराधनम् साधने स्यात् अवाप्तौ तोषणेऽपि च अधिष्ठानम् चक्रपुरप्रभावाध्यासनेष्वपि रत्नम् स्वजातिश्रेष्ठेऽपि वने सलिलकानने तलिनम् विरले स्तोके वाच्यलिङ्गम् तथोत्तरे समानाः सत्समैके स्युः पिशुनौ खलसूचकौ हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ अभिपन्नोपराद्धोऽभिग्रस्तव्यापद्यतावपि कलापो भूषणे बर्हे तूणीरे संहतावपि परिच्छदे परीवापः पर्युक्तौ सलिलस्थितौ गोधुग्गोष्ठपदीगोपौ हरविष्णुवृषाकपी बाष्पमूष्माश्रुकशिपो त्वन्नमाच्छादनम् द्वयम् तल्पम् शय्याट्टदारेषु स्तम्भेऽपि विटपो स्त्रियाम् प्राप्तरूपस्वरूपाभिरूपाबुधमनोज्ञयोः भेद्यलिङ्गा अमीकूर्मी वीणाभेदश्च कच्छपी कुतपो मृगरोमोत्थपटे चाह्नोष्टमेऽंशके रवर्णे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गकः अन्तराभवसत्त्वेष्वे गन्धर्वो दिव्यगायने कम्बुर्नावलये शङ्खे द्विजिह्वौ सर्पसूचकौ पूर्वोऽन्यलिङ्गः प्रागाः पुम्बहुत्वेऽपि पूर्वजान् कुम्भौ घटे भमूर्धांशौ बिम्भौ तु शिशुबालिशौ स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ कुक्षिभ्रूणार्भकागर्भा विस्रम्भः प्रणयेऽपि च स्याद्भेर्यान् दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियान् स्यान्महारजने क्लीबम् कुसुम्भम् करके पुमाने क्षत्रिये पिचनाभिर्ना सुरभिर्गविच स्त्रियाम् सभा संसदि सभ्ये च त्रिष्वध्यक्षे पिवल्लभः किरण प्रग्रहौ रश्मि कपिभेकौ प्लवंगमौ इच्छा मनोभवौ कामौ शौर्योद्योगौ पराक्रमौ धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः उपायपूर्व आरम्भ उपधा चाप्युपक्रमः वणिक्पथः पुरं वेदः निगमो नागरो वणिके नैगमौ द्वौ बले रामः नीलचारुसिते त्रिषु शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः स्तोमस्तोत्रे ध्वरे वृन्दे जिह्मस्तु कुटिले लसे उष्णेऽपि धर्मश्चेष्टालङ्कारे भ्रान्तौ च विभ्रमः गुल्मारुक्स्तम्भसेनाश्च जामिस्वसृकुलस्त्रियोः क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु त्रिषु श्यामौ हरित्कृष्णौ श्यामास्याच्छारिवानिशा ललामं पुच्छपुण्राश्व भूषाप्राधान्यकेतुषु सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु वामौ वल्गुप्रतीपौ द्वौ अधमौ न्यूनकुत्सितौ जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ पर्जन्यौ रसदप्तेन्द्रौ स्यादर्यस्वामि वैश्ययोः तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु रन्ध्रे शब्देऽथानुशयः दीर्घद्वेषानुतापयोः स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते समयाशपथाचारकाल सिद्धान्तसंविदः व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः अत्ययेति क्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि युद्धायत्योः सम्परायः पूज्यस्तु श्वशुरेऽपि च पश्चादवस्थायि बलं समवायश्च सन्नयौ सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी विस्रम्भयाज्ञा प्रेमाणः विरोधेऽपि समुच्छ्रयः विषयो यस्य यो ज्ञातः तत्र शब्दादिकेष्वपि निर्यासेऽपि कषायोऽस्त्री सभायाम् च प्रतिश्रयः प्रायो भूम्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि रहस्योपस्थयोर्गुह्यम् सत्यम् शपथतथ्ययोः वीर्यम् बले प्रभावे च द्रव्यम् भव्ये गुणाश्रये धिष्ण्यम् स्थाने गृहे भेग्नौ भाग्यम् कर्म शुभाशुभम् कशेरुहेम्नोर्गाङ्गेयम् विशल्या दन्तिकापि च वृषाकपायी श्रीगौर्योः अभिख्यानामशोभयोः उपायः कर्मचेष्टा च चिकित्सा च नवक्रियाः छायासूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्याम् मध्ये भबन्धने कृत्या क्रिया देवतयोः त्रिशुभेद्येधनादिभिः जन्यम् स्याज्जनवादेऽपि जघन्योऽन्त्येधमेऽपि च गर्ह्याहीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ आत्मवाननपेतोऽर्थात् अर्थ्यौ पुण्यम् तु चार्वपि रूप्यम् प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि न्याय्येऽपि मध्यम् सौम्यम् तु सुन्दरे सोमदैवते నివహావసరౌ వారౌ సంస్తరౌ ప్రస్తరాధ్వరౌ గురు గేష్పతి పిత్రాద్యౌ ద్వాపరౌ యుగ సంశయౌ ప్రకారౌ భేద సాదృశ్యే ఆకారా వింగితాకృతి కింశారూ సస్య శూకేషు మరుధన్వధరాధరౌ అద్రయో ద్రుమశైలార్కాః స్త్రీస్తనాబ్దౌ పయోధరౌ ధ్వాంతారిదానవావృత్రా బలిహస్తాంశవఃకరాః ప్రదరాభంగనారీ రుగ్బాణ అస్రాః కచా అపి అజాతశృంగో గౌః కాలే అప్యశ్మశృణా చతూబరౌ స్వర్ణేపి రాః పరికరః పర్యంక పరివారయోః ముక్తాశుద్ధౌ చతారస్యాచ్ఛారో వాయౌ స ఉత్త్రిషు కర్పూరేథ ప్రతిజ్ఞాజి సంవిదాపత్సు సంగరః వేదభేదే గుప్తవాదే మంత్రో మిత్రోరవావపి మఖేషు యూపఖండేపి స్వరుర్గుహ్యేప్యవస్కరః ఆడంబరస్తూర్యరవే గజేంద్రాణాం చ గర్జితే అభిహారోభియోగే చ చౌర్యే సన్నహనేపి చ స్యాజ్జంగమే పరివారః ఖడ్గకోశే పరిచ్ఛదే విష్టరో విటపీ దర్భముష్టిః పీఠాత్యమాసనం ద్వారిద్వాస్థే ప్రతీహారః ప్రతీహార్యప్యనంతరే విపులే నకులే విష్ణౌ బ్రభ్రుర్న పింగలే త్రిషు సారో బలే స్థిరాంశే చ న్యాయ్యే క్లీబం వరే త్రిషు దురోదరోద్యూతకారే పణేద్యూతే దురోదరం మహారణ్యే దుర్గపథే కాంతారం పున్నపుంసకం మత్సారోన్యశుభద్వేషే తద్వత్కృపణయోస్త్రిషు దైవాద్వృతే వరశ్రేష్ఠే త్రిశుక్లీమం మనాక్ ప్రియే వంశాంకురే కరీరోస్త్రీ తరుభేదే ఘటే చ నాచమూజఘరే హస్తసూత్రే ప్రతిసరోస్త్రియాం యమానిలేంద్రచంద్రార్క విష్ణుసింహాంశువాజిషు శుకాహికపిభేకేషు హరిర్నాకపిలేత్రిషు శర్కరాకర్పరాంశేపి యాత్రాస్యాద్యాపనే గతౌ ఇరాభూవాక్సురాప్సు స్యాత్ తంద్రీనిద్రా ప్రమీలయోః ధాత్రీ స్యాదుపమాతాపి క్షితిరప్యామలక్యపి క్షుద్రావ్యంగానటీవేశ్యా సరఘాకంటకారికా త్రిషుక్రూరేధమేల్పేపి క్షుద్రం మాత్రా పరిచ్ఛదే అల్పే చ పరిమాణే సా మాత్రం కాత్స్న్యేవ ధారణే ఆలేఖ్యాశ్చర్యయోశ్చిత్రం కలత్రం శ్రోణిభార్యయోః యోగ్యభాజనయోః పాత్రం పత్రం వాహనపక్షయోః నిదేశగ్రంథయోః శాస్త్రం శస్త్రమాయుధలోహయోః స్యాజ్జడాంశుకయోర్నేత్రం క్షేత్రం పత్నీశరీరయోః ముఖాగ్రే క్రోడహలయోః పోత్రం గోత్రం తు నామ్ని చ సత్రమాచ్ఛాదనే యజ్ఞే సదాదానే వనేపి చ అజిరం విషయే కాయేపి అంబరం వ్యోమ్ని వాససీ చక్రం రాష్ట్రేప్యక్షరంతో మోక్షేపి క్షీరమప్సు చ స్వర్ణేపి భూరి చంద్రౌ ద్వౌ ద్వారమాత్రేపి గోపురం గుహాదంభౌ గహ్వరే ద్వే రహోంతికముపహ్వరే పురోధికముపర్యగ్రాణి అగారే నగరే పురం మందిరం చాథరాష్ట్రోస్త్రీ విషయే స్యాదుపద్రవే దరోస్త్రియాం భయేష్వభ్రే వజ్రోస్త్రీ హీరకే పవౌ తంత్రం ప్రధానే సిద్ధాంతే సూత్రవాయే పరిచ్ఛదే ఔషీరశ్చామరే దండే అప్యౌషీరం శయనాసనే పుష్కరం కరిహస్తాగ్రే వాత్యభాండముఖే జలే
व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये छिद्रात्मीयविनाबहिरवसरमध्ये अन्तरात्मनि च मुस्तेऽपि पिठरम् राजकशेरुण्यपि नागरम् शार्वरम् त्वन्धतमसे घातुके भेद्यलिङ्गकम् गौरोरुणे सिते पीते व्रणकार्यप्यरुष्करः जठरः कठिनेऽपि स्यात् अधस्तादपि चाधरः अनाकुलेऽपि चैकाग्रः व्यग्रो व्यासक्त आकुले उपर्युदीच्य श्रेष्ठेषु अप्युत्तरस्यादनुत्तरः येषाम् विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः स्वादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ उदारो दातृमहतोः इतरस्त्वन्यनीचयोः मन्दस्वच्छन्दयोस्वैरः शुभ्रमुद्दीप्तशुक्लयोः चूडाकिरीटम् केशाश्च संयतामौलयस्त्रयः द्रुमप्रभेदमातङ्ग काण्डपुष्पाणि पीलवः कृतान्तानेहसोः कालः चतुर्थेऽपि युगे कलिः स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् स्थौल्यसामर्थ्यसैन्येषु बलम् न काकसीरिणोः वातूलः पुंसि वात्यायाम् अपि वातासहेत्रिषु भेद्यलिङ्गशठे व्यालः पुंसि श्वापदसर्पयोः मलोस्त्रीपापविट्किट्टान्यस्त्रीशूलम् ऋगायुधम् शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु कलाशिल्पे कालभेदे अप्याली सख्यावली अपि अभ्यम्बुविकृतौ वेला कालमर्यादयोरपि बहुलाः कृत्तिका गावः बहुलोऽग्नौ शितौ त्रिषु लीलाविलासक्रिययोः उपलाशर्करापि च शोणितेऽम्भसि कीलालम् मूलमाद्ये शिफाभयोः जालम् समूह आनाय गवाक्षक्षारकेष्वपि शीलम् स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् छदिर्नेत्ररुजोः क्लीबम् समूहे पटलम् नना अधस्वरूपयोरस्त्री तलम् स्याच्चामिषे फलम् और्वानलेऽपि पातालम् चैलम् वस्त्रे भमेत्रिषु कुकोलम् शङ्कुभिः कीर्णे श्वभ्रेनातुतुषानले निर्णीते केवलमिति त्रिलिङ्गम् त्वेककृत्स्नयोः पर्याप्तिक्षेमपुण्येषु कुशलम् शिक्षिते त्रिषु प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलम् जडेऽपि च करालोदन्तुरे तुङ्गे चारौ दक्षे च पेशलः मूर्खेऽर्भकेऽपि बालः स्यात् लोलश्चलसदृष्णयोः दवदावो वनारण्यवह्नी जन्महरौ भवौ मन्त्रीसहायः सचिवौ पतिशाखिनराधवाः अवयशैलमेषार्काः आज्ञाह्वानाध्वराहवाः भावः सत्ता स्वभावाभिप्रायचेष्टात्मजन्मसु स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने अविश्वासे पह्नवेऽपि निकृतावपि निह्नवः उत्से कामर्षयोरिच्छा प्रसरे मह उत्सवः अनुभावः प्रभावे च सताञ्च मतिनिश्चये स्याज्जन्महेतुः प्रभवः स्थानञ्चाद्योपलब्धये शूद्रायाम् विप्रतनये शस्त्रे पारशवो मतः ध्रुवो बभेदे क्लीबन्तु निश्चिते शाश्वते त्रिषु స్వోజ్ఞాతావాత్మని స్వం త్రిషు ఆత్మీయే స్వో స్త్రియాం ధనే స్త్రీకటీ వస్త్రబంధేపి నీవీ పరిపణేపి చ శివా గౌరీ ఫేరవయోః ద్వంద్వం కలహయుగ్మయోః ద్రవ్యాసు వ్యవసాయేషు సత్వమస్త్రీతు జంతుషు క్లీబం నపుంసకం షండే వాచ్యలింగమవిక్రమే ద్వౌ విశౌ వైశ్యమనుజౌ గౌచరాభిమరౌ స్పశౌ ద్వౌ రాశీ పుంజమేషాద్యౌ ద్వౌ వంశౌ కులమస్కరౌ రహః ప్రకాశౌ వీకాశౌ నిర్వేషో భృతిభోగయోః కృతాంతే పుంసికీనాశః క్షుద్రకర్షకయోస్త్రిషు పదే లక్ష్యే నిమిత్తే పదేశ స్యాత్ కుశమప్సు చ దశావస్థానేకవిధాప్యాశా తృష్ణాపి చాయత వశా స్త్రీకరిణీ చ స్యాత్ దృగ్జ్ఞానే జ్ఞాతరిత్రిషు స్యాత్ కర్కశః సాహసికః కఠోరామసృణావపి ప్రకాశోతి ప్రసిద్ధేపి శిశావజ్ఞే చ బాలిశః కోశో స్త్రీకుడ్మలే ఖడ్గ పిధానేర్థౌ భదివ్యయోః సురమత్స్యావనిమిషౌ పురుషావాత్మమానవౌ కాకమత్స్యాత్ ఖగౌ ధ్వాంక్షౌ కక్షౌ తు తృణవీరుధౌ అభీషుః ప్రగ్రహే రశ్మౌ ప్రైషః ప్రేషణమర్దనే పక్షః సహాయేప్యుష్టీషః శిరోవేష్టకిరీటయోః శుక్రలే మూషికే శ్రేష్ఠే సుకృతే వృషభే వృషః ద్యూతే క్షేషారిఫలకే అప్యాకర్షోథాక్షమింద్రియే నాద్యూతాంగే కర్షచక్రే వ్యవహారే కలిద్రుమే కర్షూర్వార్తాకరీషాగ్రిః కర్షోః కుల్యాభిధాయినీ పుంభావే తత్క్రియాయాం చ పౌరుషం విషమప్సు చ ఉపాదానేప్యామిషం స్యాత్ అపరాధేపి కిల్బిషం స్యాద్వృష్టౌ లోకధాత్వంశే వత్సరే వర్షమస్త్రియాం ప్రేక్షానృత్యే క్షణం ప్రజ్ఞా భిక్షాసేవార్థదా భృతిః త్విక్షోభాపి త్రిషు పరే న్యక్షం కార్త్స్న్యవికృష్టయోః ప్రత్యక్షేధికృతేధ్యక్షః రోక్షస్త్వ ప్రేమ్యచిక్కణే రవిశ్వేతచ్ఛదౌ హంసౌ సూర్యవన్హీ విభావసు వత్సౌ తర్ణకవర్షౌ ద్వౌ సారంగాశ్చ దివౌకసః శృంగారాదౌ విషే వీర్యే గుణే రాగే ద్రవే రసః పుంస్యుత్తం సావతం సౌ ద్వౌ కర్ణపూరే చ శేఖరే దేవభేదే నలే రశ్మౌ వసూరత్నే ధనే వసు విష్ణౌ చ వేధా స్త్రీత్వాశీః హితాశం సాహిత్దంష్ట్రయోః లాలసే ప్రార్థనౌత్సుక్యే హింసాచౌర్యాదికర్మ చ ప్రసూరశ్వాపి భూద్యావౌ రోదస్యౌ రోదసీ చ తే జ్వాలాభాసో నపుంస్యర్చిః జ్యోతిర్భద్యోతదృష్టిషు పాపాపరాధయో రాగః ఖగబాల్యాదినోర్వయః తేజః పురీషయోర్వర్చః మహస్తూత్సవ తేజసోః రజో గుణే చ స్త్రీ పుష్పే రాహోద్వాంతే గుణే తమః ఛందః పద్యేభిలాషే చ తపః కృచ్ఛ్రాదికర్మ చ సహో బలం సహామార్గః నభః ఖం శ్రావణో నభాః ఓకః సద్మా శ్రయశ్చౌకాః పయః క్షీరం పయోంబుచ ఓజో దీప్తౌ బలే స్రోతః ఇంద్రియే నిమ్నగారయే తేజః ప్రభావే దీప్తౌ చ బలే శుక్రేప్యతస్త్రిషు విద్వాన్ విదంశ్చ బీభత్సః హింస్రోప్యతిశయే త్వమీ వృద్ధ ప్రశస్యయోర్జ్యాయాన్ కనీయాంస్తు యువాల్పయోః వరీయాంస్తూరువరయోః సాధీయాన్ సాధుబాఢయోః దళేపి బర్హం నిర్బంధః ఉపరాగార్కాదయోగ్రహాః
द्वार्या पीडे क्वाथरसे निर्व्यूहो नागदन्तके तुलासूत्रेष्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च पत्नी परिजनादानमूलशापाः परिग्रहाः दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः व्यूहो वृन्देऽप्यहिर्वृत्रे अप्यग्नीन्द्वर्कास्तमोपहाः परिच्छदे नृपार्हेऽर्थे परिबर्हो व्ययाः परे आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे आप्रगृह्य स्मृतौ वाक्ये अप्यास्तु स्यात् कोपपीडयोः पापकुत्सेषदर्थे कुद्धिङ् निर्भर्त्सननिन्दयोः चान्वाचयसमाहारेतरेतरसमुच्चये स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति स्वित्प्रश्ने च वितर्के च तुस्याद्भेदेवधारणे सकृत्सहैकवारे च अप्याराद्दूरसमीपयोः प्रतीच्यां च रमे पश्चात् उताप्यर्थविकल्पयोः पुनः सहार्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः खेदानुकम्पासन्तोषविस्मयामन्त्रणे बता हन्त हर्षेऽनुकम्पायाम् वाक्यारम्भविषादयोः प्रतिप्रतिनिधौ वीप्सा लक्षणादौ प्रयोगतः इति हेतुप्रकरणप्रकाशादिसमाप्तिषु प्राच्याम् पुरस्तात् प्रथमे पुरार्थे घृत इत्यपि यावत्तावच्च साकल्ये अवधौ मानेव धारणे मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ वृथा निरर्थकाविद्ध्योर्नानानेकोभयार्थयोः नुपृच्छायाम् विकल्पे च पश्चात्सादृश्ययोरनु प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि उपमायाम् विकल्पे वा सामित्वर्थे जुगुप्सिते अमासहसमीपे च कम्पारिणि च मूर्धनि इवेत्थमर्थयोरेवम् नूनम् तर्केऽर्थनिश्चये तूष्णीमर्थे सुखे जोषम् किम् पृच्छायाम् जुगुप्सने नाम प्राकाश्यसम्भाव्य क्रोधोपगमकुत्सने अलम्भूषणपर्याप्तिशक्तिवारणवाचकम् हुंवितर्के परिप्रश्ने समयान्तिकमध्ययोः पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल निषेधवाक्यालङ्कारजिज्ञासानुनये खलु समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः नाम प्राकाश्ययोः प्रादुः मिथोऽन्योन्यम् रहस्यपि तिरोऽन्तर्धौ तिर्यगर्थे हाविषादशुगर्तिषु अहहेत्यद्भुते खेदे हिहेतावधारणे इति नानार्थवर्गः।